अग्निर्भगवान् सूर्यः त्वं सोमो ज्योतिषां पतिः त्वमापस्त्वं क्षितिर्व्योम आयुर्मात्रेन्द्रियाणि च सुदर्शन नमस्तुभ्यं सहस्रार अच्युत प्रिया सर्वास्त्रघातिं निप्राय स्वस्ति भूयायुडस्पते त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञोऽखिल यज्ञभुक् त्वं लोकपालः सर्वात्मा त्वं तेजः पौरुषं परम् नमस्सुनाभाशिलधर्मसेतवे ह्यधर्मशीला सुरधूमकेतवे त्रैलोक्यगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणि गृणे त्वत्तेजसा धर्ममयेन संहृतं तमः प्रकाशश्च दृशो महात्मनां दुरत्ययस्ते महिमा गिरां पते त्वद्रूपमेतत् सदसत्परावरम् यदा विसृष्टस्त्वमनञ्जनेन वै बलं प्रविष्टो जितदैत्यदानवं बाहूदरोर्वन्धृशिरोधराणि कृश्चन्नजस्रं प्रथने विराजसे सत्त्वं जगत्राण खल प्रघाणये निरूपितः सर्वसहो गदाभृत विप्रस्य चास्मत्कुलदैव हेतवे विधेहि भद्रं तदनुग्रहो हिनः यद्यस्ति दत्तम् इष्टं वा स्वधर्मो वा स्वनुष्ठितः कुलं नो विप्रदैवं चेत् द्विजो भवतु विज्वरः यदि नो भगवान् प्रीत एकः सर्वगुणाश्रयः सर्वभूतात्मभावेन द्विजो भवतु विज्वरः